नमस्कारः। किरातार्जुनीयस्य एकचत्वारिंशत्तमः श्लोकः। द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मीलयतीव मे मनः परैरपर्यासितवीर्यसम्पदां पराभवोप्युत्सव एव मानिनां। द्विषन्निमित्ता यत् इयं दशा ततः समूलम् उन्मीलयति इव मे मनः परैः अपर्यासितवीर्यसम्पदां पराभवः अपि उत्सवः एव मानिनाम्। पदविभागः। इदानीं द्रौपदी युधिष्ठिरस्य अवस्थां वर्णयन्ती अस्ति। प्रथमं किम् उक्तवती? तव शरीरं कृशत्वं प्राप्तं, तव मनसि किम् अस्ति इति अहं न जानामि। चित्तवृत्तयः तु विचित्ररूपाः भवन्ति। पूर्वं तु स्तुतिमङ्गलगीतैः प्रबोधितः आसीत्, इदानीं तु शिवारुतैः। केवलं निद्रां त्यजसि तावदेव, अनन्तरं तव वपुः सुन्दर्यं, रामणीयकं सौन्दर्यं प्राप्तम् आसीत् तव वपुः। द्विजातिभुक्तशेषेण भोजनेन पुष्टितम् आसीत् तव वपुः। इदानीं तु कृशत्वं प्राप्तं तव शरीरम् इति। अनन्तरं तव चरणौ कीदृशौ आस्ताम् इत्युक्ते मणिपीठेषु निषीदतः तव चरणौ पूर्वम्, इदानीं तु कुत्र वनेषु, कीदृशेषु वनेषु मृगब्राह्मणैः कर्तिताः शिखभागाः कुशाः येषु वनेषु सन्ति, तादृशेषु वनेषु इदानीं निषीदतः तव चरणौ इति तस्याः युधिष्ठिरस्य अवस्थां वर्णयन्ती द्रौपदी। इदानीं वदति, तव दशा मे मनः उन्मूलयति इव। तव दशा नाम ईदृशी अवस्था, इदानीम् एतावत् कष्टम् अनुभवन् अस्ति, तादृशी इयं दशा मे मनः उन्मूलयति इव। मनः इति अत्र कर्मपदम्। इयं दशा मे मनः, मम मनः द्वितीयाविभक्तिः एकवचनं, मम मनः उन्मूलयति इव। उन्मूलयति इत्युक्ते उत्पाठयति इति अर्थः। कथम् उन्मूलयति? समूलम् उन्मूलयति। मम मनः समूलम् आमूलमूलसहितम् उन्मूलयति, न केवलम् अग्रभागः वा किञ्चित् एकभागः वा मनसः एकभागः उन्मीलितम् इति न, सम्पूर्णं मम मनः उन्मीलयति, उत्पाटयति इव अस्ति। तावत् दुःखम्, अत्यन्तं दुःखम् अनुभूयते मम मनः इत्येव अर्थः। इयं दशा कथं प्राप्ता? स्वयमेव सः वानप्रस्थाश्रं करोमि इति वनवासम् आचरति वा? तथा न, रामः इव तथापि न। शत्रुद्विषन्निमित्ता दशा अस्ति इयं दशा, शत्रुभिः कारिता दशा। द्विषः एव निमित्ताः सन्ति एतस्याः दशायाः। निमित्तम् इत्युक्ते कारणम्। एतस्याः अवस्थायाः कारणीभूताः सन्ति शत्रवः, दुर्योधनादयः शत्रवः। अतः द्विषन्निमित्ता इयं दशा, यत् द्विषन्निमित्ता इयं दशा ततः तस्मात् कारणात् मम मनः व्यतते। शत्रुभिः कृता दशा इति कृत्वा एव मम मनः समूलम् उन्मूलयति इव अस्ति। यदि शत्रुभिः इयं दशा न कारित, शत्रवः एतस्याः अवस्थायाः कारणं न स्युः, तर्हि मम मनसः एतावत् दुःखं न स्यात् इति द्रौपदी वक्तुकामा अस्ति। अत एव यत् इयं दिशा द्विषन्निमित्ता ततः मे मनः समूलम् उन्मूलयति इति। तस्मात् कारणात् एव मम मनः समूलम् उन्मूलयति इव अस्ति। कारणं विपदः तु भवन्ति एव सर्वेषां जीवने, किन्तु यदि विपद् शत्रुभिः कारिता स्यात् तर्हि इतोपि अधिकं दुःखं स्वाभाविकतया भवति किल। पुनः किं वदति, परैः अपर्यासितवीर्यसम्पदां मानिनां पराभवः अपि उत्सवः एव. मानिनां पराभवः अपि उत्सवः एव. मानः यस्य अस्ति सः मानी भवति. मानिनाम् इति मानमेव धनं, मानधनाः इति वदामः किल, तद् मानधनानां स्वाभिमानानां पराभवः अपि उत्सवः भवति. अपमानमपि तेषां पराजयं वा भवतु, तदपि तेषाम् उत्सवः एव भवति. नाम ते कष्टं न अनुभवन्ति. किन्तु कीदृशानां माणिनाम् इत्यत्र एकं विशेषणम् उच्यते, अपर्यासितवीर्यसम्पदां माणिनां. वीर्यम् एव सम्पद् येषां ते, वीर्यमेव सम्पद् यस्य अस्ति सः वीर्यसम्पद् भवति. तादृशानां माणिनाम् अपर्यासित, पर्यासित इत्युक्ते नाशित इति अर्थः, अथवा विनाशित इति. अपर्यासित इत्युक्ते न नाशितं, न नाशिता वीर्यम् इति सम्पद् येषां ते इति. नाम अर्थः किमित्युक्ते, येषां मानिनां वीर्यरूपसम्पद् न नष्टा, न नाशिता. कैः न नाशिता? परैः. परः इत्युक्ते शत्रुः इति अर्थः. शत्रुभिः यस्य कस्यापि वीरसम्पदः नाशः नास्ति चेत् तर्हि तादृशस्य पराजयः अपि उत्सवः भवति. द्रौपदी अत्र किं वक्तुम् इच्छति इत्युक्ते, यदि कस्यचित् वीरस्य पराभवः विधिवशात् प्राप्तः चेत् तद् दुःखं न जनयति, किन्तु स एव पराभवः यदि शत्रुभिः प्राप्ता चेत् तद् महते दुःखाय भवति, तद् महत् दुःखं जनयति. अतः अत्र स एव वद्य, अतः शत्रुभिः येषां मानिनां वीरसम्पदः न नष्टाः तर्हि तेषां पराभवः अपि उत्सवः एव भवति. तेषां पराभवेन दुःखं न भवति इति वदति. उत्सवः इत्युक्ते फेस्टिवल् इति अर्थः न, तेषां दुःखं न, सन्तोषः एव भवति तेषां. केषां? येषां वीर्यसम्पदां नाशः शत्रुभिः न कृतः चेत्. अतः परैः अपर्यासितवीर्यसम्पदां, न पर्यासित, न नाशित वीर्यम् एव सम्पद् येषां ते, तादृशानां माणिनां मानधनानां पराभवः अपि उत्सवाय भवति. पराभवः अपि सन्तोषाय एव भवति, दुःखाय न भवति. किन्तु भवताम् इदानीं पराजयः उत्सवार्थं न, सन्तोषार्थं नास्ति. कारणं शत्रुभिः कारितः पराभवः. शत्रवः दुष्यन्निमित्ता दशा अस्ति इदानीम् अस्माकम् अवस्था तु. अतः अस्माकम् अत्र सन्तोषस्य कालः न. अत्र अर्थान्तरन्यास अलङ्कारः समर्थयति पूर्वोक्तं वाक्यं, वाक्यान्तरेण समर्थनं करोति इति कृत्वा अत्र अर्थान्तरन्यास अलङ्कारः. अत्र व्यतिरेकेण अर्थान्तरन्यास अलङ्कारः नाम पूर्वोक्तं वाक्यं विपरीतवाक्येन समर्थयति इत्यत्र व्यतिरेकात् अर्थान्तरन्यास अलङ्कारः. भावार्थं, सर्वेषामपि विपदः आगच्छन्ति गच्छन्ति च, तत्र न कापि चिन्ता. परम् अस्माकम् इयं विपत् शत्रुपरिकल्पिता, शत्रुभिः परिकल्पिता अस्ति, अतः शत्रुपरिकल्पिता विपत्. अत एव मनः व्यथते. मानिनां मानहानिः दुस्सहा भवति. दुस्सहा नाम सोढुम् अशक्या भवति, न तु आपत्. एषा तु आपत् अपमानकरी, अवमानकरी अथवा अपमानकरी द्वयमपि श्रुतम्. अतः तस्य प्रतिक्रियां कुरु. अग्रे द्विचत्वारिंशः श्लोकः. विहाय शान्तिं नृपधाम तत्पुनः, प्रसीद सन्धेहि वधाय विद्विषां, व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न बुभृतः विहाय शान्तिं नृप धाम तत् पुनः प्रसीद सन्धेहि वधाय विद्विषां व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयः न भूभृतः. अनेन श्लोकेन द्रौपदी इदानीं किं करणीयम् इति युधिष्ठिरं वदति. इदानीं शान्तिं विहाय, प्रथमं शान्तिं त्यक्त्वा शत्रूणां निग्रहणाय गच्छ, विद्विषां वधाय सन्धेहि इति वदति. शत्रूणां मारणार्थं प्रस्थीयताम्. कारणं मुनयः एव शान्तिम् आचरन्ति, राजानः न. मुनयः एव शमेन सिद्धिं व्रजन्ति. एवं क्षमायाः आचरणेन, क्षमा तितिक्षा अस्ति चेत् मुनयः प्रायेण सिद्धिं प्राप्नुवन्ति, किन्तु भूभृतः राजानः कदापि शमेन सिद्धिं न प्राप्नुवन्ति. अतः अत्र इदानीं शमः न कार्यः, शमेन कार्यस्य सिद्धिः न भवति राज्ञाम् इति कृत्वा, अत एव हे नृप इति, पुनः पुनः हे नृप नृप इति सम्बोधनेन भवान् राजा अस्ति इति पुनः पुनः स्मारयति द्रौपदी. हे नृप, शान्तिं शमं विहाय त्यक्त्वा, हा धातुः विपूर्वक हा धातुः, जहाति इति लट्लकारः, वि उपसर्गत्वात् लेप् प्रत्ययः, विहाय त्यक्त्वा अथवा परित्यज्य, शमं परित्यज्य, तत् धाम विद्विषां वधाय पुनः सन्धेहि. तत् धाम, तत् इत्यत्र तत् प्रसिद्धं धाम, धाम धामनी धामानि इति नकारान्तः नपुंसकलिङ्गशब्दः, धामन् शब्दः. अतः शान्तिं विहाय त्वम् इति अत्र अध्याहृतं कर्तृपदं भवति, धाम इति कर्मपदं, द्वितीया विभक्तिः एकवचनं. तत् धाम विद्विषां शत्रूणां, विद्विट् इति शब्दः बहुत्र दृष्टः पूर्वेषु श्लोकेषु. तद्धाम विद्विषां शत्रूणां वधाय, अत्र वधाय इति पदं चतुर्थी विभक्तिः, चतुर्थी विभक्तिः एकवचनं, वध इति शब्दस्य चतुर्थी एकवचनं. विहाय वधाय इति एतयोः सम्बन्धः नास्ति. विहाय इति लबन्तम् अव्ययं, वधाय इति चतुर्थी विभक्त्यन्तं पदम्. विद्विषां वधाय हननाय अथवा मारणार्थं सन्धेहि, सन्धेहि इत्युक्ते अङ्गीकरोतु इति अर्थः. शान्तिं त्यक्त्वा तत् धाम प्रसिद्धं तेजः, तत् इत्यत्र प्रसिद्धम् इति, तत् इति पदस्य तत् तेजः नाम तत् प्रसिद्धं यत् क्षत्रियाणां धार्मिकं तेजः भवति वर्तते, तत् तेज, तत् तेजः इदानीं शत्रूणां मारणार्थम् अङ्गीकरोतु इति वदति. तत् इति पदस्य तावत् प्रामुख्यमस्ति. प्रसिद्धं क्षत्रियाणाम् उचितं धार्मिकं तेजः इति अर्थः. तत्तेजः विद्विषां शत्रूणां हननाय अङ्गीकरोतु, अङ्गीकुरु, एक्सेप्ट् करोतु इत्युक्ते तत् बहिः विद्यमानं वस्तु अङ्गीकरोतु इति न, भवतः अन्तरङ्गे अस्ति तत् क्षत्रियाणां धार्मिकं तेजः, क्षात्रं तेजः यत् वर्तते भवताम् अन्तरङ्गे, तद् पुनः इदानीं, पुनः इत्यपि पदस्य प्रयोगं करोतु, करोति सा. पूर्वमपि कुत्रापि प्रयोगं कृतवान् स्यात्, किन्तु तत् तेजः क्षत्रियरूपं, पराक्रमरूपं तत् तेजः इदानीं पुनः सन्धेहि, पुनः तस्य अङ्गीकारं करोतु. अन्तरङ्गे विद्यमानं तत् तेजः इदानीं प्रकाशय इति अर्थमपि वक्तुं शक्यते, सन्देहि तत् स अङ्गीकरो तस्य प्रकाशनमपि करोतु, प्रकाशयतु तत् तेजः इदानीं। पुनः प्रसीद इति वदति, प्रसीद तदपुरं सन्धेहि, सन्धेहि अङ्गीकुरु इति अर्थः। धा उपसर्ग, धा धातुः तम् उपसर्गपूर्वक धा धारणपोषणयोः इति धातोः मध्यमपुरुषः लोट्लकारः मध्यमपुरुषः एकवचनं सन्धेहि इति। पुनः प्रसीद, कारणमहं यत् वदानि वदामि तद् किञ्चित् वा मनसि चिन्तयतु इति तस्य किञ्चित् प्रार्थनारूपेण करोति, हे नृप किं प्रसीद, किञ्चित् कन्सिडर् वा करोतु मम उक्तिम् इति। अतः प्रसन्ना, प्रसन्नः भव, प्रसन्नं कुरु इति अर्थः। पुनः अर्थान्तरन्यासेन उक्तं विषयं समर्थयति। निःस्पृहाः मुनयः शत्रून् अवधूय शमेन सिद्धिं व्रजन्ति न भूभृतः। मुनयः शत्रून् अवधूय, अवधूय अवधूय इति पदस्य डिस्कार्डिङ्ग् अथवा रिजेक्टिङ्ग् अथवा निर्जित्य पराजित्य, शत्रून् पराजित्य शमेन शान्तिमार्गेण सिद्धिं व्रजन्ति, सिद्धिं प्राप्नुवन्ति, सफलतां प्राप्नुवन्ति मुनयः। कीदृशाः मुनयः? निःस्पृहाः मुनयः। निःस्पृहाः नाम निष्कामाः, कामरहिताः मुनयः। शान्त्या शमेन, शमं नाम बाह्येन्द्रियनिग्रहेण, बाह्यविद्यमानानि इन्द्रियाणि निगृह्य ते सिद्धिम् अभीष्टं फलं प्राप्तुं शक्नुवन्ति, किन्तु न भूभृतः। भूभृतः एवं स्वीकरणं, भूभृतः शान्त्या सिद्धिं न व्रजन्ति इति अन्वयः करणीयः। भूभृतः भुवं बिभर्ति इति भूभृत् राजा इति अर्थः। भूभृतः राजानः शमेन शान्त्या शान्तिमार्गेण सिद्धिं शत्रुवधरूप सिद्धिं न व्रजन्ति, न प्राप्नुवन्ति। अतः शान्तिः अत्र शत्रूणां विषये शान्तिः न कार्या राजभिः। मुनयः शान्त्या मोक्षं प्राप्तुं शक्नुवन्ति, मोक्षप्राप्त्यर्थं शान्तिः उचिता मार्गः स्यात्, किन्तु शत्रूणां निग्रहणार्थं शान्तिः उचितः मार्गः न। अतः इदानीं किं करणीयं? तत् विधातव्यम्। हे नृप, शान्तिं विहाय तत् धाम विद्विषां वधाय पुनः सन्देहि। शान्तिं शमं त्यक्त्वा, क्षमां त्यक्त्वा अथवा तितिक्षां त्यक्त्वा तद्धाम, तत् प्रसिद्धं क्षत्रियाणां धार्मिकं तेजः इदानीं शत्रूणां वधार्थं, वधाय वधार्थं पुनः सन्धेहि, पुनः विधीयतां, पुनः अङ्गीक्रियतां। प्रसीद, प्रसन्नां प्रसन्नं कुरु। निःस्पृहाः मुनयः, निष्कामाः मुनयः एव शत्रून् निर्जित्य शान्तिमार्गेण, शान्त्या शमेन इत्यत्र शान्त्या ते अभीष्टं सिद्धिं प्राप्नुवन्ति, व्रजन्ति, प्राप्नुवन्ति, किन्तु राजानः तु शान्त्या न सिद्धिं न प्राप्नुवन्ति। भावार्थम् अत्रापि अर्थान्तरन्यासः अलङ्कारः एव। भावार्थं हे राजन्, शान्तिमार्गे अद्य एवं भूतः अस्ति, भवान् इदानीं शान्तिमार्गे अस्ति, तत् त्यक्त्वा शत्रुवदाय उद्योगं कुरु, उद्योगं नाम प्रयत्नं कुरु, प्रसन्नः भूत्वा एतत् मम वचनम् अङ्गीकुरु। मुनयः एव निष्कामा, निष्कामाः शान्त्या मोक्षाय यतन्ते, मोक्षप्राप्त्यर्थं शान्तिः तु उचिता भवति, राज्ञां तु क्रोधेन शत्रुसंहारः एव उचितः, राज्ञां शान्तिमार्गः नोचितः। अग्रे गच्छामः, त्रिचत्वारिंशः श्लोकः। पुरःसरा धामवतां यशोधना सुदुःसहं प्राप्य निकारमीदृशं भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विताम्। पुरःसराः धामवतां यशोधनाः सुदुःसहं प्राप्य నికారం ఈదృశం భవాదృశా చేత్ అధికురువతే రతిం నిరాశ్రయా హంత హత మనస్విత. ద్రౌపది అనేన శ్లోకేన భవాదృశాః రాజానః ఏతాదృశేషు ఆపత్కాలేషు పరాభవం మహత్ మహాంతం పరాభవం ప్రాప్యపి రతిం అధికురువతే చేత్. రతిం నామ రిజాయిసింగ్, సంతోషం అనుభవంతః సంతి చేత్ మనస్విత నిరాశ్రయ భవతి. మనస్విత నామ అభిమానిత, అభిమానస్య భావం అభిమానిత భావార్థ తద్విధి తల్ ప్రత్యయ. అభిమానిత కుత్ర వా గచ్చతి నిరాశ్రయ భవతి, అతః భవతః కించిత్ అభిమానః భవతు. అభిమానం త్యక్త్వా ఇదానీం భవంతః తు సంతోషం అనుభవంతః సంతి చేత్ తదపి కీదృశాః భవాదృశాః యశోధనాః రాజానః ధామవతాం పురస్సరాః ఇతి ఏకైకమపి విశేషణం తు తస్య తీక్ష్ణం విశేషణం. యావత్ యుధిష్ఠిరస్య మనః మనసః అంతః గత్వా తం చోదయతి తాదృశం తీక్ష్ణం విశేషణం ప్రయుజ్య వాక్యాన్ని వదతి ద్రౌపది. ధామవతాం పురస్సరాః, ధామ ఇత్యుక్తే తేజస్, ప్రాక్తన శ్లోకే అపి దృష్టవంతః, తేజస్వినాం అగ్రగణ్యాః అగ్రేసరాః అగ్రగామినాః అగ్రగామినాః. తేజస్వినాం గణనా క్రియతే చేత్ యుధిష్ఠిరః ఏవ తత్ర ప్రథమం భవతి ఇతి, ప్రథమః భవతి తావత్ తేజస్వినాం శ్రేష్ఠః ఇతి అర్థః. పురస్సరాః తేజస్వినాం శ్రేష్ఠాః పురస్సరాః నామ అగ్రేసరాః భవాదృశాః. పునః కీదృశాః యశోధనాః, అత్యధికాని యశాంసి ప్రాప్తవంతః. యశోధనాః యశః ఏవ ధనం యేషాం తే యశోధనాః భవంతి నామ యశస్వినః ఇతి అర్థః. యశస్వినః భవాదృశాః రాజానః నికారం ప్రాప్య, నికారం నామ అపమానం ప్రాప్య కష్టం ప్రాప్య. కీదృశం నికారం ఈదృశం, ఈదృశం ఏతాదృశం నికారం, కీదృశం నికారం శత్రుభిః కారితం వనవాసరూపం అపమానం. తదపి పునః కీదృశం అస్తి సుదుస్సహం దుఃఖేన సహ్యతే సోఢుం అశక్యం నికారం ప్రాప్య. ఈదృశం ఏతాదృశం అపమానం ప్రాప్య పరాభవం ప్రాప్య రతిం అధికురువతే చేత్ సంతోషం అనుభవంతి చేత్. అధికురువతే కురుతే కుర్వాతే కురువతే ఇతి కృ ధాతోః ఆత్మనేపది ప్రథమపురుషః బహువచనం లట్ లకారస్య కురువతే ఇతి. భవాదృశాః కురువతే ఇతి బహువచనం. రతిం కురువతే చేత్ సంతోషం స్వీకురువంతి చేత్ సంతోషం అనుభవంతి చేత్ హంత మనస్విత నిరాశ్రయ హత భవతి. హంత మనస్విత నిరాశ్రయ హత, మనస్విత అభిమానిత నిరాశ్రయ జాయేత, నిరాశ్రయ సతి వినశ్యతి. సా కుత్ర గచ్చతి మనస్విత ఇతి విషయః కుత్ర వా గచ్చతి ఇతి భవాదృశాః జనాః అభిమానం త్యక్త్వా సంతోషం అనుభవంతః సంతి అస్యామపి ఆపత్ స్థిత్యాం అస్మానపి అస్యామపి విపత్ స్థిత్యాం ఏతాదృశం సంతోషం అనుభవంతి చేత్ అభిమానిత కుత్ర వా గచ్చతి. అతః భవతా కించిత్ భవాన్ కించిత్ అభిమానః భవత్ భవాన్ కించిత్ సాభిమానః భవతు ఇతి వదతి. కించిత్ వా అభిమానః భవతు భవతః, నో చేత్ తస్యాః అభిమానితాయాః ఆశ్రయః న భవతి ఇతి. కించిత్ పరిహాససహితం వాక్యం ఇత్యేవ అహం మన్యే. ధామవతాం పురస్సరాః, ధామవతాం శ్రేష్ఠాః అగ్రేసరాః యశోధనాః యశస్వినః భవాదృశాః రాజానః సుదుస్సహం సోఢుం అశక్యం అస్తి ఏతాదృశం వనవాసం తు వనవాసం ఆగత్య అపి వనవాసం కుర్వంతః అపి వయమత్ర కుత్రాపి ప్రాసాదే వాసం కుర్వంతః న స్మః. సోఢుం అశక్యం వనవాసం అస్తి ఏతాదృశం వనవాసం నికరం అపమానం శత్రుభిః కారితం వనవాసం అనుభవంతః అపి భవంతః एतादृशं निकारं प्राप्य दुःखं प्राप्य रतिम् अधिकुर्वते सन्तोषम् अनुभवन्ति चेत् हन्त मनस्विता अभिमानिता निराश्रया सति आश्रयरहिता सति हता भविष्यति सा विनशिष्यति नष्टा भविष्यति भावार्थं हे राजन् त्वं तेजोवताम् अग्रणीः महायशस्सम्पन्नः च यदि भवादृशाः राजानः दुःसहं पराभवम् अनुभूय अपि सन्तुष्टाः भवन्ति तर्हि अभिमानिता आश्रयरहिता सति विनशिष्यति अग्रे अत्रापि अर्थान्तरन्यासः अलङ्कारः भवति हन्त इति पदस्य अहो इति वदामः किल तावदेव खेदार्थम् इति उच्यते तेजस्विनां तु मनस्विता इति गुणः भवेत् अतः भवादृशाः तेजस्विनः मनस्विनः भवेयुः नो चेत् सा मनस्विता निराश्रया नष्टा भविष्यति इति वदति भवन्तः तेजस्विनः सन्ति अतः मनस्विनः अपि भवन्तु अभिमानिनः अपि भवन्तु इति नो चेत् अभिमानितायाः निराश्रयः जायते इति अग्रे गच्छामः चतुश्चत्वारिंशः श्लोकः अथ क्षमामेव निरस्तविक्रमः चिराय पर्येषि सुखस्य साधनं विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सन् जुहुधीह पावकम् अथ क्षमाम्येव निरस्तविक्रमः चिराय पर्येषि सुखस्य साधनं विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सन् जुहुधि इह पावकम् द्रौपदी वदति अहम् एतावत् पर्यन्तं बहुप्रकारान् उपदेशान् दत्तवती महान्तं विलापं कृतवती एतत् सर्वं श्रुत्वापि यदि भवान् क्षान्तिः एव उचिता इति किमपि उद्यमम् अकृत्वा शान्तिमार्गमेव आश्रयामि इति निश्चयं करोति चेत् एतत् धनुः त्यजतु जटाधरः सन् जटां धृत्वा होमं करोतु पावकं जुहुधि इति वदति अग्निं होमं करोतु होमं कुरु इति अथवा नाम पक्षान्तरे यदि पूर्वोक्तं मम उपदेशं न अङ्गीकरोति चेत् इति अर्थः अथ निरस्तविक्रमः नष्टपराक्रमः गतपराक्रमः चिराय बहुकालं क्षमाम्येव सुखस्य साधनं क्षमा अथवा क्षमः तितिक्षा एवं क्षमाम्येव सुखस्य साधनं पर्येषि नाम चिन्तयति चेत् क्षमामेव सुखस्य साधनम् इति अवगच्छति चेत् पर्येषि निश्चिनोषि इति अस्ति अत्र अथवा अवगच्छसि इत्यपि अर्थः भवति क्षमामेव शान्तिमार्गः एव सुखस्य साधनम् इति चिन्तयति चेत् क्षितिः क्षान्तिः क्षमा क्षान्तिः शान्तिः क्षमा सर्वं समानमर्थं बोधयति चिरकालेनापि क्षान्तिमेव सुखस्य साधनम् इति अवगच्छसि चेत् तर्हि कार्मुकं विहाय कार्मुकं नाम धनुः विहाय कीदृशं कार्मुकं लक्ष्मीपतिलक्ष्मकार्मुकं नपुंसकलिङ्गपदम् अतः लक्ष्मीपतिलक्ष्मकार्मुकं लक्ष्म इत्युक्ते चिह्नम् इति अर्थः लक्ष्मीपतिः राजा राज्ञां चिह्नम् अस्ति कार्मुकं धनुः राज्ञः कस्यचिदपि राज्ञः उचितं लक्षणम् अस्ति धनुः इति तादृशं राजचिह्नं कार्मुकं धनुः त्यक्त्वा तदनन्तरं किं करणीयम् इति वदति जटाधरः सन् जटां धृत्वा जटाधरः भूत्वा इह अत्रैव पावकं जुहुधि पावकं नाम अग्नि, अग्नौ होमं करोतु। अथ निरस्तविक्रमः नष्टपराक्रमः भवान् चिराय बहुकालं क्षमामेव सुखस्य साधनं, क्षान्तिः एव सुखस्य मार्गः इति चिन्तयति चेत्, पर्येषि चेत् चेत् तर्हि तत्सर्वम् अध्याह्रियते अद्य निश्चयं करोति चेत् इति अर्थः। शान्तिः एव मार्गः इति निश्चयं करोति चेत् लक्ष्मीपतिलक्ष्मकार्मुकं विहाय राज्ञः उचितं लक्षणं, तदेव राजचिह्नं चिह्नरूपं धनुः त्यक्त्वा जटाधरः सन् जटाधारी भूत्वा जटां धृत्वा इह अत्रैव वने, अन्यत्र कुत्रापि गन्तव्यम् इति न, अत्रैव कर्तुं शक्नोति। किं करोतु इति वदति, अत्रैव वने पावकं जुहुधि, अग्नौ होमं करोतु भवान्। कारणं पूर्वमेव उक्तवती आसीत्, मुनयः एव शान्त्या सिद्धिं प्राप्नुवन्ति, भूभृतः शान्तिमार्गेण सिद्धिं न प्राप्नुवन्ति इति पूर्वस्मिन् श्लोके श्लोकद्वयपूर्वं दृष्टवन्तः। अतः यदि भवान् शान्तिमार्गमेव आश्रित्य भवामि इति चिन्तयति चेत् भवान् तु निस्पृहः मुनिः एव भवति। अतः किमर्थं धनुषः आवश्यकता एव नास्ति, धनुः त्यक्त्वा अत्रैव अग्निकार्यं करोतु, होमं करोतु। दुःभावार्थम् अथवा यदि त्वं पराक्रमं त्यक्त्वा क्षमागुणेन एव चिरं सुखं जीवितुं निश्चिनोषि, तर्हि प्रथमं धनुः सन्त्यज, जटिलः भूत्वा वने एव वसन् मुनिवृत्त्या शेषजीवितं यापय। मुनिवृत्तिम् आचर, तदेव होमं, होमादिकरणेन शेषजीवितं, यत् अवशिष्टमस्ति तव जीवनं तत्सर्वम् एवमेव यापयतु